शतमानं भवति शतायो पुरुषस्यतेन्द्रिय आयुष्येवेन्द्रिजे प्रतितिष्ठति।
கண்கள் தீபம்